गणानां त्वा गणपतिगुं हवामहे कविं कवीनामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् प्रणोति वी सरस्वती वाचेभिर्वाजिनीवती धीनामवित्रयवतु गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरे ओम् ओम् नमो भगवते रुद्राय ओम् नमस्ते रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यात इषु शिवतमा शिवम् बभूवते धनुः शिवा शरव्यायातवत या नो रुद्रमृडया या ते रुद्रशिवा तनुरघोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशम् तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसि पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छावदामसि यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहीगुश्च सर्वाञ्जम्भयन् सर्वा सयातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ये चेमागुम् रुद्रा अभितो दिक्षु श्रुता सहस्रशो वैशागुम् हेडयीमहे असव्यो वसत्पतिनीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नदहार्यः उतैनम् विश्वा भूतानि सदृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अतो ये अस्य सत्त्वालोहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोरार्नियोर्जाम् याश्च ते हस्त इषव पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषु हे निशील्य शल्यानामुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उत अनेशन्नस्येशव आभुरस्य निषङ्गतिः या ते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तया स्वान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायाना तताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः अथो य इषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन्विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय ಶ್ರೀಮನ್ಮಹಾದೇವಾಯ ನಮಃ. ನಮೋ ಹಿರಣ್ಯಬಾಹವೇ ಸೇನಾನ್ಯೇ ದಿಶಾಂ ಚ ಪತಯೇ ನಮೋ ನಮೋ ವೃಕ್ಷೇಭ್ಯೋ ಹರಿಕೇಶೇಭ್ಯಃ ಪಶೂನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸಸ್ಮಿಂಜರಾಯ ತ್ರಿಶೀಮತೇ ಪಥೀನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಬಬ್ಲುಷಾಯ ದಿವ್ಯಾದಿನೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಹರಿಕೇಶಾಯೋಪವೀತಿನೇ ಪುಷ್ಟಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭವಸ್ಯ ಹೇತ್ಯೈ ಜಗತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರುದ್ರಾಯ ತತಾರಿಣೇ ಕ್ಷೇತ್ರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಸೂತಾಯ ಹಂತ್ಯಾಯ ವನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ರೋಹಿತಾಯ ಸ್ಥಪತಯೇ ವೃಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಮಂತ್ರಿಣೇ ವಾಣಿಜಾಯ ಕಕ್ಷಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಭುವಂತಯೇ ವಾರಿವಸ್ಕೃತಾಯೌಷಧೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಉಚ್ಚೈರ್ಘೋಷಾಯ ಕ್ರಂದಯತೆ ಪತ್ತೀನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಕೃತ್ಸ್ನವೀತಾಯ ಧಾವತೆ ಸತ್ವನಾಂ ಪತಯೇ ನಮಃ. ನಮಃ ಸಹಮಾನಾಯ ನಿವ್ಯಾಧಿನ ಆವ್ಯಾಧಿನೀನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಕಕುಭಾಯ ನಿಷಂಗಿಣೇ ಸ್ತೇನಾನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಷಂಗಿಣ ಇಷು ಧಿಮತೆ ತಸ್ಕರಾಣಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ವಂಚತೆ ಪರಿವಂಚತೆ ಸಾಯೂನಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ನಿಚೇದವೇ ಪರಿಚರಾಯಾರಣ್ಯಾನಾಂ ಪತಯೇ ನಮೋ ನಮಃ. ಶ್ರುಕಾವಿಭ್ಯೋ ಚಿಘಾಗುಂ ಸದ್ಭ್ಯೋ ಮುಷ್ಟತಾಂ ಪತಯೇ ನಮೋ ನಮೋ. ಸಿಮದ್ಭ್ಯೋ ನಕ್ತಂ ಚರಭ್ಯ ಪ್ರಕೃಂತಾನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಉಷ್ಣೀಷಿಣೇ ಗಿರಿಚರಾಯ ಕುಲುಂಚಾನಾಂ ಪತಯೇ ನಮೋ ನಮ. ಇಷು ಮದ್ಭ್ಯೋ ಧನ್ವಾವಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಆತನ್ವಾನೇಭ್ಯ ಪ್ರತಿದಧಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಆಯಚ್ಛದ್ಭ್ಯೋ ವಿಸೃಜಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋಸ್ಯದ್ಭ್ಯೋ ವಿದ್ಯಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಆಸೀನೇಭ್ಯ ಶಯಾನೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಸ್ವಪದ್ಭ್ಯೋ ಜಾಗ್ರದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ತಿಷ್ಟದ್ಭ್ಯೋ ಧಾವಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಸಭಾಭ್ಯಃ ಸಭಾಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಅಶ್ವೇಭ್ಯೋ ಅಶ್ವಪತಿಭ್ಯಶ್ಚ ವೋ ನಮಃ. ನಮ ಆವ್ಯಾಧಿನೇಭ್ಯೋ ವಿವಿಧ್ಯಂತೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಉಗಣಾಭ್ಯಸ್ತೃಗುಂ ಹತೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಗೃತ್ಸೇಭ್ಯೋ ಗೃತ್ಸಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಪ್ರಾತೇಭ್ಯೋ ವ್ರಾತಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಗಣೇಭ್ಯೋ ಗಣಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ವಿರೂಪೇಭ್ಯೋ ವಿಶ್ವರೂಪೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಮಹದ್ಭ್ಯಃ ಕ್ಷುಲ್ಲಕೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ರಥಿಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ರಥೇಭ್ಯೋ ರಥಪತಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಸೇನಾಭ್ಯಸೇನಾನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ. ಕ್ಷತ್ರುಭ್ಯಃ ಸಂಗ್ರಹೀತೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ. ಸಕ್ಷದ್ಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ. ಕುಲಾಲೇಭ್ಯ ಕರ್ಮಾಲೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ. ಪುಂಜಿಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. ಇಶುಕೃಭ್ಯೋ ದನ್ವಕೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ. ಮೃಗಯೋಭ್ಯಶ್ವನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮ. श्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीडुष्टवाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च रीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च पगल्भाय च नमो जघन्याय च बुद्ध्याय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः शोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूतिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च अनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेशुधिमते च नमः शेषेशवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः शोध्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेध्याय च विद्युत्याय च नमः ईत्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः साम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कुल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च फेण्याय च नमः स्विकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपथ्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोपगुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागुम् हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्राभे अन्धदस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्च नाममत् या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यता नश्यमसत्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रोत नो मयस्कृधे क्षयद्वीराय नमसा विधेमते यच्चम् च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्त उत मानो अर्भकम् मान उक्षल्तमुत मान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभावितो वधेरविष्मन्तो नमसा विधेमते आराते गोग्र उत पूरुषग्ने क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अधि च देव प्रोह्यता च नः शर्व यच्च विपर्हाः सुहिश्रुतम् गत्त सदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृगाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्तु परिपेशस्य दुर्मतिरधायोः अवस्थिरामगवद्यस्तनुष्वमीडोत्सोकाय तनयाय मृडया मेढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसान आचर पिनाकम् बिभ्रदागहे विकिरिद विलोयित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तु ताः सहस्राणि सहस्रधा बाहुवोत्सव हेतयः तासामीशानो भगवः पराचीनामुखाकृधे सहस्राणि सहस्रशो ये रुद्रा अधिभूम्या तेषागुम् सहस्रयोजने वधन्वानि तन्मसे अस्मिन्महत्यर्नवेन्तरिक्षे भवा अधे नीलग्रीवाशिति कण्ठा शर्वा अधः क्षमाचराः नीलग्रीवाशिति कण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु पिबतो जनान् ये पताम् पथिरक्षय ऐलभृदाय व्युधः ये तीर्थानि प्रचरन्ति शुकावन्तो निषङ्गिनः య ఏతావంతశ్చ భూయాగుంసశ్చ దిశో రుద్రావితస్థిరే తేషాగుంసహస్రయో జనే వధన్వాని తన్మసే నమో రుద్రేభ్యో యే పృథివ్యాం యేంతరిక్షే యే దివి యేషామన్నం వాతో వర్షమిషవస్తేభ్యో దశ ప్రాచీర్దశ దక్షిణా దశ ప్రదేచేర్దశోదేచేర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృళయంతు తేయం ద్విష్మో యశ్చ నో ద్వేష్టితం భోజం భేదధామి త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ వందనాన్మృత్యోర్ముక్షీయమామృతాత్ యో రుద్రో అగ్నౌ యో అప్సు యోషధీషు యో రుద్రో విశ్వ భువనా వివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశా మృత్యో మర్త్యాయ హంతవే తాన్ యజ్ఞస్య మాయయా సర్వానవ యజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా ప్రాణానాం గ్రంథిరసి రుద్రో మా విశాంతకః తేనాన్నేనాప్యాయస్వ నమో రుద్రాయ విష్ణవే మృత్యుర్మే పాహి తమస్తు హి యస్విషుస్సు ధన్వాయో విశ్వస్య క్షయతి భేషజస్య యక్ష్వా మహేశౌ మనసాయ రుద్రం నమో భిర్దేవమసురం దువస్య అయం మే హస్తో భగవాన్ అయం మే భగవత్తరః అయం మే విశ్వభే సజోయగు శివాభివర్షనః ఓం శాంతి శాంతి శాంతిః ఓం అగ్నా విష్ణో సజోష సేవా వర్ధంతు వాంగిరః యున్నైర్వాజేభిరాగతం వాజశ్చ మే ప్రసవశ్చ మే ప్రయతిశ్చ మే ప్రసితిశ్చ మే దీతిశ్చ మే క్రతుశ్చ మే స్వరశ్చ మే శ్లోకశ్చ మే శ్రావశ్చ మే శ్రుతిశ్చ మే జ్యోతిశ్చ మే సువశ్చ మే ప్రాణశ్చ మే పానశ్చ మే వ్యానశ్చ మే సుశ్చ మే చిత్తం చ మాదీతం చ మే వాక్ చ మే మనశ్చ మే చక్షుశ్చ మే శ్రోత్రం చ మే దక్షశ్చ మే బలం చ మోజశ్చ మే సహశ్చ మ ఆయుశ్చ మే జరా చ మ ఆత్మా చ మే తనోశ్చ మే శర్మ చ మే వర్మ చ మేంగాని చ మే స్థాని చ మే పరోగుంసి చ మే శరీరాని చ మే జైష్ట్యం చ మ ఆధిపత్యం చ మే మన్యుశ్చ మే భామశ్చ మే మశ్చ మే భశ్చ మే జేమా చ మే మహిమా చ మే వరిమా చ మే ప్రతిమా చ మే వర్ష్మా చ మే ద్రాఘుయా చ మే వృద్ధం చ మే వృద్ధిశ్చ మే సత్యం చ మే శ్రద్ధా చ మే జగచ్చ మే ధనం చ మే వశశ్చ మే త్విషిశ్చ మే క్రీడా చ మే మోదశ్చ మే జాతం చ మే జరిష్యమానం చ మే సూక్తం చ మే సుకృతం చ మే విత్తం చ మే వేద్యం చ మే భూతం చ మే భవిష్యచ్చ మే సుగం చ మే సుపథం చ మరుద్ధం చ మరుద్ధిశ్చ మే కృప్తం చ మే కృప్తిశ్చ మే మతిశ్చ మే సుమతిశ్చ మే శం చ మే మయశ్చ మే ప్రియం చ మే ను కామశ్చ మే కామశ్చ మే సౌమనసశ్చ మే భద్రం చ మే శ్రేయశ్చ మే వశ్యశ్చ మే యశశ్చ మే భగశ్చ మే ద్రవిణం చ మే యంతా చ మే ధర్తా చ మే క్షేమశ్చ మే ధృతిశ్చ మే विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ओच्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे शब्दिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च मौद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभुज मे प्रभु च मे बहुच मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे शुच्च मे मृहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे निवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे स्विकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे दाभ्यश्च मे ठिपतिश्च म उपागुंशुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्थे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे श्रुतश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च मौपरवाश्च मे धिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतवृक्षम आधवनीयश्च व आग्नेर्घ्रम् च मे हविर्धानम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वबृदश्च मे स्वगाकारश्च मे अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्ष मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतुश्च मे व्रतम् च मे होरात्रयोर्वृष्ट्या बृहद्रदन्तरे च मे यज्ञेन कल्पेता गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौहे च मे पञ्चाविश्च मे पञ्चावे च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौहे च मे पष्टवाच्च मे पष्टौहे च मुक्षा च मे वशा च वृषभश्च मे वेहश्च मे नड्वाञ्च मे धेनुश्च मायुर्यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पताम् व्यानो यज्ञेन कल्पताम् चक्षुर्यज्ञेन कल्पताविश्रोत्रम् यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् वाग्यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् यज्ञो यज्ञेन कल्पताम् एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविगुंसतिश्च मे त्रयोविगुंसतिश्च मे पञ्चविगुंसतिश्च मे सप्तविगुंसतिश्च मे नवविगुंसतिश्च म एकत्रिगुंषट्च मे त्रयस्त्रिगुंषट्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विगुंसतिश्च मे चतुर्विगुंसतिश्च मेऽष्टाविगुंसतिश्च मे द्वात्रिगुंषट्च मे षट्त्रिगुंषट्च मे चत्वारिगुंषट्च मे चतुश्चत्वारिगुंषट्च मेऽष्टाचत्वारिगुंषट्च मे वाजश्च प्रसवश्चाबीजश्च क्रतुश्च शुभश्च मूर्धा च व्यश्नियस्त्यान्द्यायनस्त्यान्द्यश्च भुवनश्च भुवनश्चाधिपतिश्च इरादेवहोर्मनुर्यज्ञनिर्बृहस्पतिरुक्ता मदानि सगुंसि षद्विश्वे देवासोक्तवाच पृथिविमातर्मामाहिगुंसिर्मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतीम् देवेभ्यो वाचमुद्यासगुं शुश्रूषेण्याम् मनुष्येभ्यस्तम् मा देव अवन्तु शोभायै पितरो नु मदन्तो ॐ शान्ति शान्ति शान्तिः ॐ तच्छय्योरावृणीमहे गातुम् यज्ञाय
గాతుం యజ్ఞపతయే దైవే స్వస్తిరస్తునః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం శన్నోస్తు ద్విపదే శం చతుష్పదే ఓం శాంతి శాంతి శాంతిః సహస్రశీరుషా పురుషః సహస్రాక్షః సహస్రపాత్ సభోగం విశ్వతో వృత్వా అత్యతిష్ఠద్దశాంగులం పురుష ఏవేదగుం సర్వం యద్భూతం యచ్చ భవ్యం ఉతామృతత్వస్యేషానః యదన్నేనాతిరోహతి ఏతావానస్య మహిమా అథోజ్జాయాగశ్చ పురుషః పాదోస్య విశ్వాభూతాని త్రిపాదస్యామృతం దివే త్రిపాదోర్ధ్వగుదైః పురుషః పాదోస్యేహాభవాత్ పునః తతో విశ్వం వ్యక్రామత్ శాసనానశని అభి తస్మాత్ విరాడ జాయత విరాజో అధిపురుషః స జాతో అత్యరిచ్యత పశ్చాద్ భూమిమతో పురః యత్ పురుషేణ హవిషా దేవా యజ్ఞమతన్వత వసంతో అస్య సీదాజ్యం గ్రీష్మ యజ్మ శరద్ధవిః సప్తాస్యాసన్ పరిధయః త్రిసప్త సమిదక్రితాః దేవాయద్యజ్ఞం తన్వానాః అభద్రన్ పురుషం పశుం తం యజ్ఞం వర్హిషి ప్రోక్షన్న పురుషం జాతమగ్రతః తేన దేవా అయజంత సాధ్యారుషయశ్చ యే తస్మాత్ యజ్ఞాత్ సర్వహుతః సంభృతం వృషదాజ్యం పశోగుస్తాగుశ్చక్రే వాయవ్యాన ఆరణ్యాన్ గ్రామ్యాశ్చ యే తస్మాత్ యజ్ఞాత్ సర్వహుతః రుచస్సామాని జగ్నిరే ఛందాగుంసి జగ్నిరే తస్మాత్ యజుస్తస్మాదజాయత తస్మాదశ్వా అజాయంత ఏకే చోభయాదతః గావోహ జగ్నిరే తస్మాత్ తస్మాజ్జాత అజావయః యత్పురుషం వ్యదదుః కలిథా వ్యకల్పయన్ ముఖం కిమస్య కౌ బాహూ కా వూరు పాదా ఉచ్యేతే బ్రాహ్మణోస్య ముఖమాసేత్ బాహూరాజన్యకృతః ఊరు తదస్య యద్వైశ్యః పద్యాగుం శూద్ర అజాయత చంద్రమా మనసో జాతః చక్షోః సూర్యో అజాయత ముఖాదింద్రశ్చాగ్నిశ్చ ప్రాణాద్వాయురజాయత నాభ్య ఆసీదంతరిక్షం శీర్ష్ణోద్యౌ సమవర్తత పద్భ్యాం భూమిర్దిశ శ్రోత్రాత్ తథా లోకాగుం అకల్పయన్ వేదాహమేతం పురుషం మహాంతం ఆదిత్యవర్ణం తమసస్తు పారే సర్వాణి రూపాణి విచిత్య ధీరః నామాని కృత్వాభివదన్ యదాస్తే ధాతా పురస్తాద్యముదా జహార శక్ర ప్రవిద్వాన్ ప్రదిశశ్చ తస్రః తమేవం విద్వానమృత ఇహ భవతి नान्यपंथा अयनाय विद्यते यज्ञेन यज्ञमयजं तदेवाः तानि धर्माणि प्रथमान्यासन् तेहनाकं महिमानः सजन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्य सम्भूत पृथिव्यैरसा च विश्वकर्मणः समवर्ततादे तस्य त्वष्टा विदद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतं पुरुषं महान्तम् आदित्यवर्णं तमसः परस्तात् तमेवं विद्वानमृत इह भवते नान्यपन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्यातपते यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यस्त्वैवम् ब्राह्मणो विद्यात् तस्य देवा असन्वशे ह्रेश्च ते लक्ष्मेश्च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवे स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ॐ आतो न इन्द्रक्षुमन्तम् चित्रम् ग्रावम् सङ्गृभाय महाहस्ते दक्षिणेन विद्माहित्वा तु विकूर्मिम् तु विदेष्टम् तु विमघम् तु विमात्रमवोभिः न हि त्वा शूरदेवानमर्ता शोधित्सन्तम् भीमम् नगाम् वारयन्ते ये तोन्विन्द्रम् स्तवामेशानम् वस्वस्वराजम् नराथसामर्थिषन्नः प्रस्तोषदुपगारिषच्रवत्सामहीयमानम् अभिराधसा जुगुरत् आनो वरदक्षिणेनाभिसव्येन प्रमृषा इन्द्रमानो वसोर्निर्भाक् उपक्रमस्वाभरदृशदा दृष्णो जनानाम् अधा शोष्टरस्य वेदः इन्द्रय वुनुते अस्ति वाजो विप्रे सनित्वः अस्माभिः सुतम् सनुहि सद्यो जुवस्ते वाजा अस्मभ्यम् विश्वश्चन्द्राः वसैश्च मक्षोजरन्ते गणानाम् त्वा गणपतिम् हवामहे कविम् कवीरामुपमश्रवस्तवम् ज्येष्ठराजम् ब्रह्मणा ब्रह्मणस्पत आनशृण्वन्नोतिभिः सीदसादनम् निशुषेद गणपते गणेशत्वामा पूर्वे प्रथमं कवीनां नरते त्वक्रियते किंचनारे महामर्कं मघवन् चित्रमर्च अभिज्ञानो मघवन्नाथमाना सखे बोधि वसुपते सखेनाम् रणम् कृधिरणकृच्छच्च शुष्मा भक्ति चिदाभजाराये अस्मान् ॐ शान्ति शान्ति शान्तिः ॐ देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णोहस्ताभ्याम् अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसा या विषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णोहस्ताभ्याम् सरस्वत्यैर्भैषज्येन वीर्यायान्नाद्याया विषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णोहस्ताभ्याम्
इन्द्रस्येन्द्रियेण
श्रियै यशसे बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् उष्णोहस्ताभ्यागुं सरस्वत्यै वाचो यन्तुर्यन्त्रेणाग्ने स्वसाम्राज्ये नाभिषिञ्चामीन्द्रस्य त्वा साम्राज्ये नाभिषिञ्चामि बृहस्पते स्वा साम्राज्ये नाभिषिञ्चामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनश्यामाशास्ते उत्तरान्देव यज्ञामाशास्ते भूयो हविष्करणमाशास्ते दिव्यन्धामाशास्ते विश्वं प्रियमाशास्ते यदनेन हविशास्ते तदस्यात् तदृद्यात् तदस्मै देवारा सन्ताम् द्रुपदादिवेन मुमुचानः स्विन्नस्नाद्विमलादिव भूतम् पवित्रेणेवाज्यम् आपश्युन्धन्तु मैनसः भूर्भुवत्सु 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 वः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ ईशावास्यमिदगुं सर्वं यत्किञ्च जगत्यां जगत् तेन त्यक्तेन भुञ्जीता मागृध कस्य सिद्धनम् कुर्वन्नेवेह कर्माणि जिजिविशेक्षतगुं समाः एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे असुर्यानामते लोक अन्धेन तमसावृताः तागस्ते प्रेत्याभिगच्छन्ति ये केचात्महलो जनाः अने जले कं मनसो जवेयो नैनद्देवा आप्नुवन् पूर्वमर्षत् तद्धावतो ज्ञानत्ये तिष्ठत्तस्मिन् नपो मा तरिष्वा दधाते तदेजति तन्नेजति तद्दूरे तद्वन्तिके तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैवाभूद्विजानतः तत्र को मोहः कः शोक एकत्वमनुपश्यतः सपर्यगाच्छुक्रमकायमव्रणमस्नाभिरगुम् शुद्धमपापविद्धम् कविर्मनीषे परिभूः स्वयम्भूर्याथा तथ्यतोऽर्थान्व्यदधाश्वतेभ्यः समाभ्यः अन्धम् तमः प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोयौ विद्याया गुम्रताः अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया इति सुश्रुमधीराणाम् येनस्तद्विचचक्षिरे विद्याम् च विद्याम् च यस्तद्वेदो भयगुंसः अविद्यया मृत्युम् तीर्त्वा विद्यया मृतमश्नुते अन्धम् तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम् रताः अन्यदेवाहुः सम्भवादन्यदाहुरसम् भवात् इति सुश्रुमधीराणाम् येनस्तद्विदचक्षिरे सम्भूतिम् च विनाशम् च यस्तद्वेदो भयगुंसः विनाशेन मृत्युम् तीर्त्वा सम्भूत्यामृतमश्नुते हिरण्मयेन पात्रेण सत्यस्यापि हितम् मुखम् तत्त्वम् पोषन्नपावृणु सत्यधर्माय दृष्टये पोषन्नेकर्षेयमसूर्य प्राजापत्यव्योहरश्मीन् समोहते जो यत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमथेतम् भस्मान्तगुम् शरीरम् ॐ क्रतो स्मर कृतग् स्मर क्रतो स्मर कृतग् स्मर अग्नेनय सुपथा राये अस्मा विश्वानि देव वयुनानि विद्वान् युयोद्यस्मज्जुहुराणमेनो भूयिष्ठाम् धि नम उक्तिम् विधेम ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ धाता पुरस्ताद्यमुराजहार शक्रः प्रविद्वान् प्रदिशस्य तस्रः तमेवम् विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते సహస్రశీరుషం దేవం విశ్వాక్షం విశ్వశంభువం విశ్వం నారాయణం దేవమక్షరం పరమం పదం విశ్వతః పరమానిత్యం విశ్వం నారాయణగుం హరిం విశ్వమేవేదం పురుషస్తద్విశ్వముపదేవతే పతిం విశ్వస్యాగ్నేశ్వరగుం శాశ్వతగుం శివమచ్యుతం నారాయణం మహాజ్ఞేయం విశ్వాత్మానం పరాయణం నారాయణ పరో జ్యోతిరాత్మా నారాయణ పరః నారాయణ పరం బ్రహ్మతత్వం నారాయణ పరః నారాయణ పరో ధ్యాత ధ్యానం నారాయణ పరః యచ్చ కించిత్ జగత్ సర్వం దృశ్యతే శూయతేపి వా అంతర్బహిశ్చ తత్ సర్వం వ్యాప్య నారాయణ స్థితః అనంతమవ్యయం కవిగుం సముద్రేంతం విశ్వశంభువం పద్మకోశ ప్రతికాశగుం హృదయం చాప్యతో ముఖం అతో నిశ్యామితస్యాంతి నాభ్యాముపరితిష్టతే జ్వాలమాలాకులం భాతి విశ్వస్యాయతనం మహత్ సంతతగుం శిలా విస్తులం వత్యాగోష సన్నివం తస్యాంతి సుశిరగుం సూక్ష్మం తస్మిన్ సర్వం ప్రతిష్ఠితం తస్య మధ్యే మహానగ్నిర్విశ్వాచిర్విశ్వతోముఖ సోగ్రభుక్విభజన్ తిష్టన్నాహారమజర కవిః తిర్యగోర్ధ్వమరశ్చాయిదశ్వయస్తస్య సంతతా సంతాపయతి స్వం దేహమాపాదతలమస్తకః తస్య మధ్యే వన్నిషిక అనియోద్వాయవస్థితః నీలతో యదమజ్జస్తా విజ్జుల్లేకే భవాస్వరా నీవాదశోకవర్తన్వే పీతాభా స్వద్యణోపమా తస్యాశిఖాయా మధ్యే పరమాత్మా వ్యవస్థితః స బ్రహ్మ స శివః స హరిశ్రేంద్ర సోక్షర పరమస్వరాట్ ఋతగుం సత్యం పరం బ్రహ్మ పురుషం కృష్ణ పింగళం ఊర్ధ్వరేకం విరూపాక్షం విశ్వరూపాయ వై నమో నమః నారాయణాయ విద్మహే వాసుదేవాయ ధీమహే తన్నో విష్ణు ప్రచోదయాత్ స్వస్తి ప్రజాభ్య పరిపాలయంతాం న్యాయేన మార్గేణ మహేమహేషాః గోబ్రాహ్మణేభ్యః శుభమస్సు నిత్యం సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు సమస్తలోకాః సుఖినో భవంతు శాంతి శాంతి శాంతి.